अध स्नादाशितस्यास्य स्नेहबस्तिविधानतः ऋजो सुखोपविष्टस्य पीढे जानुसमे मृदौ हृष्टे मेढ्रे स्थिदे चरजौ शनै स्रोतो विशुद्धये सूक्ष्मां शलाकां प्रणये तया शुद्धेनुसेवनी आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः पीडितेन्दर्गते स्नेहे स्नेहबस्तिक्रमोहितः बस्तीननेन विधिना दद्यात्रींश्चतुरोऽपि वा अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्।